हरिः ओम् शुक्लाम्बरधरम् विष्णुम् शिशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये अगजाननपद्मार्कम् गजाननमहर्निशम् अनेकदन्तम् भक्तानाम् एकदन्तमुपास्महे श्रीशिवसहस्रनामस्तोत्रम् वासुदेव उवाच ततः सप्रयतो भूत्वा मम तात युधिष्ठिर प्राञ्जलिः प्राह विप्रर्षिर्नाम सङ्ग्रहमादितः उपमन्युरुवाच ब्रह्म प्रोक्तैः ऋषि प्रोक्तैर्वेद वेदाङ्गसम्भवैः सर्वलोकेषु विख्यातम् स्तुत्यम् स्तोष्यामि नामभिः महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना यथोक्तैः साधुविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः प्रवरम् प्रथमम् स्वर्ग्यम् सर्वभूतहितम् शुभम् श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः सत्यैः तत्परमम् ब्रह्म ब्रह्म प्रोक्तैः सनातनम् वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम वरयैनम् भवम् देवम् भक्तस्त्वम् परमेश्वरम् तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् न शक्यम् विस्तरात्कृष्णम् वक्तुम् सर्वस्य केनचित् युक्तेनापि विभूतीनामपि वर्षसितैरपि यस्यादिमध्यमान्तानि गम्यम् तेन सुरैरपि कस्तस्य शक्नुयाद्वक्तुम् गुणान् कास्नेन माधव किन्तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् शक्तितश्चरितम् वक्ष्ये प्रसादात्तस्य धीमतः अप्राप्य तु तदोऽनुज्ञाम् न शक्यस्तोतुमीश्वरः यदा तेनाभ्यनुज्ञातस्तुतो वै स तदा मया अनादिनिधनस्याहम् जगद्योनेर्महात्मनः नाम्नाम् किञ्चित् समुद्देशम् वक्ष्याम्यव्यक्तयोनिनः वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः शृणु नाम्नाम् च यम् कृष्ण यदुक्तम् पद्मयोनिना दश नाम सहस्राणि यान्याः प्रपितामहः तानि निर्मध्य मनसा दध्नो घृतमिवोद्धृतम् गिरेसारम् यथा हेम पुष्पसारम् यथा मधु घृतात्सारम् यथा मण्डम् तथैतत्सारमुद्धृतम् सर्वपापापहमिदम् चतुर्वेदसमन्वितम् प्रयत्नेनाधिगन्तव्यम् धार्यम् च प्रयतात्मना माङ्गल्यम् पौष्टिकम् चैव रक्षोघ्रम् पावनम् महत् इदम् भक्ताय दातव्यम् श्रद्धया नास्तिकाय च नाश्रद्धधानरूपाय नास्तिकायाजितात्मने यश्चाभ्यसूयते देवम् कारणात्मानमीश्वरम् स कृष्णनरकम् याति सह पूर्वैः सहात्मजैः इदम् ध्यानमिदम् योगमिदम् ध्येयमनुत्तमम् इदम् जप्यमिदम् ज्ञानम् रहस्यमिदमुत्तमम् यम् ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमाम् गतिम् पवित्रम् मङ्गलम् मेध्यम् कल्याणमिदमुत्तमम् इदम् ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः सर्वस्तवानाम् राजत्वे दिव्यानाम् समकल्पयत् तदा प्रभृति चैवायमीश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमरपूजितः ब्रह्मलोकादयम् स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् स्वर्गाच्चैवात्र भूलोकम् तण्डिना ह्यवतारितः सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् निगदिष्ये महाबाहोस्तवानामुत्तमम् स्तवम् ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् तेजसामपि यत्तेजस्तपसामपि यत्तपः शान्तानामपि यश्शान्तो द्युतीनामपि या द्युतिः दान्तानामपि यो दान्तो धीमतामपि या च धीः देवानामपि यो देव ऋषीणामपि यस्ऋषिः यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः रुद्राणामपि यो रुद्रप्रभा प्रभवतामपि योगिनामपि यो योगी कारणानाम् च कारणम् यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः सर्वभूतात्मभूतस्य हरस्यामित तेजसः अष्टोत्तरसहस्रम् तु नाम्नाम् सर्वस्य मे शृणु यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ॐ स्थिरस्थाणु प्रभुर्भीमः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतश्चाश्वतो ध्रुवः श्मशानवासी भगवान् केचरो गोचरोऽर्धिनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेष प्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः पवित्रम् च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहवधिर्वरः आदिरन्तोलयः कर्ता मृगबाणार्पणो नगः महातपा घोरतपा अदीनो दीनसाधकः संवत्सरकरो मन्त्रः प्रमाणम् परमम् तपः योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेता सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठमुमापतिः विश्वरूपः स्वयम् श्रेष्ठो बलवीरो बलोगणः गणकर्ता गणपतिर्दिग्वासाः कामयेव च मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तः कपालवान् अशनीशतघी खड्गी पट्टसी चायुधी महान् स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गङ्गाधारी कपद्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायीनभस्थलः त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः अहश्चरो नक्तम् चरस्तिग्ममन्युः सुवर्चसः
गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बरावृतः कालयोगी महानाथः सर्वकामश्च दुष्पथः निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधः स्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनत्तो नर्तकः सर्वलालसः घोरो महातपः पाशो नित्यो निहो निरालयः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः अधर्षणो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोजितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थितिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यस्वः सहायः कर्मकालवित् विष्णुप्रसादितो यज्ञसमुद्रो बडबामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनम् सिद्धिः सर्वविग्रह एव च शिखी मुण्डी जटीज्वाली मूर्तिजो मूर्धगोबली वैष्णवी प्रणवीताली खेली कालकटङ्कटः नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगमः प्रजापतिर्विश्वबाहुर्विभागः सर्वतोमुखः विमोचनः सुसरणो हिरण्यकवचोद्भवः मेघजो बलचारी च महीचारी स्तुतस्तथा सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः व्याळरूपो गुहावासी ग्रहमालीतरङ्गवित् त्रिदशः कालदृक्कर्म सर्वबन्धविमोचनः बन्धनत्वसुरेन्द्राणाम् युधि शत्रुविनाशनः साङ्ख्यप्रसादो दुर्वासा सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् सर्ववासः सर्वचारी दुर्वासा वासवोमरः हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहणिः सर्वकामदः सर्वकालप्रसादश्च सुबलो बलरूपभृत् सर्वकामप्रदश्चैव सर्वदः सर्वतोमुखः आकाशनिर्विरूपश्च निपातो ह्यवशः खगः रौद्ररूपोऽसुरादित्यो बहुरश्मिः सुवच्चसि वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मा निरालोकः सम्भग्नश्च सहस्रदः पक्षी च प्लक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो ह्यस्वद्धोर्धकरो यशः वामदेवश्च वामश्च प्राग्दक्षिणमुदङ्मुखः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवाम्पतिः वज्रजिह्वश्च विष्कम्भी च मूस्तम्भन एव च
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशान ईश्वरः कालो निशाचारी पिनाकवृत् निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता आज्ञात्मानुगतो बलः इतिहासः सकल्पश्च गौतमोधनिशाकरः दम्भो यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता यनौषधः अक्षरम् परमम् ब्रह्म बलवान् शक्त एव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादः सुस्वप्नो दर्पणो दत्त्वमित्रजित् वेदकालो मन्त्रकारो विद्वान् समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो यतिधूम्रो हुतो हविः वृषभः शङ्करो नित्यम् वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः स्वस्तिधः स्वस्ति भावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियम् सर्वदेहिनाम् महापादो महाहस्तो महाकायो महायशः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महाक्षश्च महाहनुः महानासो महाकम्बुर्महाग्रीवश्मशानभाक् महावक्षामहोरस्को ह्यन्तरात्मा मृगालयः लम्बनो लम्बितोष्टश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानभो महारोमा महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययोगिरिसाधनः स्नेहनो स्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः गण्डली मेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामाश्च रुक्सहस्रामितेक्षणः यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारप्रियः सर्वः कनकः काञ्जनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्थपति स्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तम् कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः आश्रमः सः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्लः आयुश्चैव परोपरः गंधर्वो ह्यदितिस्ताश्यः सुविज्ञेयः सुशारदः परस्वथायुधो देवो ह्यनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वांगरूपो मायावी सुहृदो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः सकामारिर्महादंष्ट्रो महायुधः बहुधा निन्दितः शर्वः शङ्करः चन्द्रशेखरः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुध्न्यो निलाभश्च चेकितानो हरिस्तदा अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुस्कन्धो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवोधरः प्रभावः सर्वगोपायुरर्यमासविता रविः उषङ्गुश्च विधाता च मान्दाता भूतभावनः विभुर्वर्णविभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलो नलः बलवांश्चोपशान्तश्च पुराणः पुण्यसञ्चरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो गर्भचारी सर्वेषाम् प्राणिनाम् पतिः देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो वकुलश्चन्दनच्छदः सारग्रीवो महाजत्रुरलोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तमः सिंहनादः सिंहदंष्ट्रः सिंहकः सिंहवाहनः सिंहनादः सिंहदंष्ट्रः सिंहकः सिंहवाहनः प्रभावात्मा जगत्कालः कालो लोकहितस्तरुः सारङ्गो नवचक्राङ्गः केतुमाली सभावनः भूतालयो भूतपतिरहोरात्रमनिन्दितः वर्धितः सर्वभूतानाम् निलयश्च विभुर्भवः अमोघः संयतो ह्यस्वो भोजनप्राणधारणः धृतिमान्मतिमान् दक्षः सत्कृतश्च युगाधिपः गोपाली गोपतिर्ग्रामो गोचर्मवसनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः प्रकृष्टारिर्महामर्षो जितकामो जितेन्द्रियः गान्धारश्च सुभासश्च तपःसक्तोरतिर्नरः महागीतो महानृत्यो ह्यप्सरोगणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आवेश सर्वगन्धसुखावहः तोरणस्तारणो वातः परधीपतिखेचरः संयोगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः नित्य आत्मा सहायश्च देवासुरपरिः परिः युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः आषाढश्च सुषाढश्च ध्रुवोधहरिणो हरः पपुरावर्तमानेभ्यो वसुश्रेष्ठो महापदः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः रत्नप्रभूतो रक्ताङ्गो महानवनिपानवित् मूलम् विशालो ह्यमृतो व्यक्ता व्यक्तस्तपो निधिः आरोहणोऽधिरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो योगकरो हरिः युगरूपो महारूपो महानागहनोऽवधः न्यायनिर्वहणोपादः पण्डितो ह्यचलोपमः बहुमालो महामालः शशिहरिसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिनेत्रश्च विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सह निवेदनः सुभाजातः सुगान्धारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् मन्थानो बहुलो वायुः सकलः सर्वलोचनः तलस्थालः करस्थाली ऊर्ध्वसंहननो महान् क्षत्रम् सुक्षत्रो विख्यातो लोकः सर्वाश्रयक्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षककुभो वज्री शतजिह्वः सहस्रवात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् पवित्रम् त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळः ब्रह्मदण्डविनिर्माता शतघ्नीपाशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्तिर्ब्रह्म कृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपो नैकात्मा तिग्मतेजा स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरम्हा मनोजवः चन्दनी पद्मनाळाग्रः सुरभ्युत्तरणो नरः कर्णिकारमहास्रग्वी नीलमौळिः पिनाकभृत् उमापतिरुमाकान्तो जाह्नवी भृदुमाधवः वरो वराहो वरदो वरेण्यः सुमहास्वनः महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गळः प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्यक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यशिर्वसुरादित्यो विवस्वासवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतुसंवत्सरो मासः पक्षः सङ्ख्यासमापनः कलाकाष्ठालवामात्रा मुहूर्ताः क्षपाक्षणाः विश्वक्षेत्रम् प्रजाबीजम् लिङ्गमाद्यस्तु दीर्घमः सदसव्यक्तमव्यक्तम् पिता माता पितामहः स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् निर्वाणम् ह्लादनम् चैव ब्रह्मलोकः परागतिः देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणी देवादिदेवो देवर्षिर्देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयो चिन्त्यो देवतात्मात्मसम्भवः उद्भित्रिविक्रमो वैद्यो विरजो नीरजो मरः ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः विबुधोग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः सुयुक्तः शोभनो वज्री प्रासानाम् प्रभवो व्ययः गुहः कान्तो निजः सर्गः पवित्रः सर्वपावनः शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः अविरामः सुरगणो विरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः स्थावराणाम् पतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थो चिन्त्यः सत्यव्रतः शुचिः व्रताधिपः परम् ब्रह्म भक्तानुग्रहकारकः विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् यथा प्रधानम् भगवानिति भक्त्या स्तुतो मया यम् न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः स्तोतव्यमच्यम् वन्द्यम् च कश्चोष्यति जगत्पतिम् भक्त्या त्वेवम् पुरस्कृत्य मया यज्ञपतिर्विभुः ततोऽभ्यनुज्ञाम् सम्प्राप्य स्तुतो मतिमताम्बरः शिवमेभिस्तुवदेवम् नामभिः पुष्टिवर्धनैः नित्ययुक्तः शुचिर्भूतः प्राप्नोत्यात्मानमात्मना एतद्धि परमम् ब्रह्म परम् ब्रह्माधिगच्छति ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्पराः स्तूयमानो महादेवस्तुष्यते नियतात्मभिः भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः तथैव च मनुष्येषु ये मनुष्याः प्रधानतः आस्तिकाश्च दधानाश्च बहुभिर्जन्यभिस्तवैः भक्त्या ह्यनन्यमीशानम् परम् देवम् सनातनम् कर्मणा मनसा वाचा भावेनामित तेजसः शयानाजाग्रमाणाश्च व्रजन्नुपविशंस्तथा उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् स्तुवन्तस्तूयमानाश्च तुष्यन्ति च रमन्ति च जन्मकोटिसहस्रेषु नानासंसारयोनिषु जन्तोर्विगतपापस्य भवेर्भक्तिः प्रजायते उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः भाविनः कारणम् चास्य सर्वमुक्तस्य सर्वदा एतद्देवेषु दुष्प्रापम् मनुष्येषु न लभ्यते निर्विघ्ना निर्मला रुद्रे भक्तिरव्यभिचारिणी तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् येन यान्ति पठाम् सिद्धिम् तद्भावगतचेतसः ये सर्वभावानुगता प्रपद्यन्ते महेश्वरम् प्रसन्नवत्सलो देवः संसारार्तान् समुद्धरेत् एवमन्येन कुर्वन्ति देवाः संसारमोचनम् मनुष्याणाम् ऋते देवम् नान्याशक्तिस्तपो बलम् इति देनेन्द्रकल्पेन भगवान् सदसत्पतिः कृत्तिवासास्तुतः कृष्णतण्डिना शुभबुद्धिना स्तवमेतम् भगवतो ब्रह्म स्वयमधारयत् गीयते च स बुध्येत ब्रह्मा शङ्करसन्निधौ इदम् पुण्यम् पवित्रम् च सर्वदा पापनाशनम् योगदम् मोक्षदम् चैव स्वर्गदम् तोषदम् तथा एवमेतत्पठन्ते य एकभक्त्या तु शङ्करे या गतिः साङ्ख्ययोगानाम् व्रजन्ते ताम् गतिम् तथा स्तवमेनम् प्रयत्नेन सदा रुद्रस्य सन्निधौ अब्धमेकम् चरेद्भक्तः प्राप्नुयादीर्षितम् फलम् एतद्रहस्यम् परमम् ब्रह्मणो हृदि संस्थितम्। ब्रह्मा प्रोवाच शक्राय, शक्रः प्रोवाच मृत्यवे, मृत्युः प्रोवाच रुद्रेभ्यो, रुद्रेभ्यस्तण्डिमागमत्। महता तपसा प्राप्तम् तण्डिना ब्रह्म सद्मनि। तण्डिः प्रोवाच शुक्राय, गौतमाय च भार्गवः, वैवस्वताय मनवे, गौतमप्राह माधव, नारायणाय साध्याय मनुरिष्टाय धीमते। यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः। नाचिकेताय भगवानाह वैवस्वतो यमः। मार्कण्डेयाय वाष्णेय नाचिकेतोऽभ्यभाषत। मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन। तवाप्यहममित्रघ्नस्तवम् दद्याम् ह्यविश्रुतम्। स्वर्ग्यमारोग्यमायुष्यम् धन्यम् वेदेन संमितम्। नास्य विघ्नम् विकुर्वन्ति दानवा यक्षराक्षसाः। पिशाचाया तु धाना वा गृह्यका भुजगा अपि। यः पठेत शुचिः सार्धम् ब्रह्मचारी जितेन्द्रियः। अभग्नयोगो वर्षन्तु सोऽश्वमेधफलम् लभेत्।
इति श्रीमन्महाभारते अनुशासनिकपर्वणि श्रीशिवसहस्रनामस्तोत्ररत्नकथनम् नाम सप्तदशोऽध्यायः समाप्तः।